सुभाषितम् एव अस्ति, पुस्तकेषु च या विद्या, परहस्ते च यद्धनं, समये तु परिप्राप्ते न सा विद्या न तद्धनं। पुस्तकेषु च विद्या, परहस्ते च यद्धनं, समये तु परिप्राप्ते न सा विद्या न तद्धनम्। सो तात्पर्यमेव अस्ति, नालेज् इन् द बुक् बुक् नालेज् एण्ड् मनी विच् इस् नाट् इन् युर् हेण्ड् इस् बोत् विच् आर् नाट् अवेलेबल्, सो इन् द टैम् आफ् नीड् दे आर् आफ् नो यूस्। न विद्या न तद्धनं प्रयोजनम्, एतदस्ति सुभाषितम्। गृहपाठमपि पश्यामः, सर्वे प्रेषितवन्तः, गृहपाठम् आरम्भं कुर्मः।
नमस्कारः सर्वेभ्यः। गतसप्ताहे लोट् लकार दृष्टवन्तः, अनिता भगिनी अत्र वदतु किञ्चित्।
नमस्ते महोदय, सेकेण्ड् नम्बर् महोदय, इन्द्रचित्तेन तदेव अवचयत।
There's a lot of noise. पठतु भगिनि।
सन्मार्गम् अनुसरतु, सहयोगं ददातु, प्रकृतिं पश्यतु।
एकनिमिषं, द्वितीयं किं किम् उक्तवती?
सहयोगं ददातु इस् वाट् ऐ मीन्ड्, सहयोग इस् समथिंग लाइक कोऑपरेशन इस् वाट् ऐ थॉट।
भगिनी भवत्याः किमपि प्रॉब्लम अस्ति, वी विल कम टू यू लेटर भगिनी। सहयोगं ददातु इस् वाट् यू हैड, ओके, धन्यवादः भगिनी। अपर्णा भगिनी अग्रिमं करोतु।
आं महोदय, प्रकृतिं पश्यतु, संस्कृतं लसतु।
ओके, सो सम्यक् भगिनी। सो द थिङ्ग् इस् देर् मे बी मोर् देन् वन् दट् यु केन् चूस्, बट् यु हव् टु टेक् द मोस्ट् अप्रोप्रियेट् वन्। सम्यक् भगिनी, धन्यवादः।
धन्यवादः।
बालकृष्णमहोदय।
नमस्ते महोदय।
नमस्ते महोदय।
ध्येयं मरतु, भारतं जयतु।
सम्यक्। सो डिड् यू did you have any other answers to the ones that we talked about?
Yeah. Or did you have... Here and there, I thought. Prakritim also, we can say Prakritim Asatu Anupat.
Samskrutam Jayatu Mahode. Bharatam Lasatu.
You can generally Samskritam Jayatu also we say Jayatu Samskritam Kalu Jayatu Manukulam. So there can be more than one, but we have to pick so that we can use each one at least once. So okay, dhanyavada, agre sarama. I'm having a lot of disturbance today. I don't know if it's my phone or seeing a lot of disturbance.
What do you mean by Lasatu? I could not say that. Lasatu?
Who's speaking just now? There was a lot of disturbance.
Anita Bhagini.
I think you have to change your audio, Bhagini. I am not able to. There's a lot of disturbance and it's very... lot of background noise. If you had any this thing, put it in the chat, Bhagini. If you had a question. Agre Sarama. Bhumi Bhagini, do 1 and 6. Atra.
Namaskaram, Mahoday. Bhavan Parishramam Karotu. Bhavati Durgunam Tyajatu.
Samyak. Dhanyavada. Hemangi Bhagini, Agrima Dvayam Karotu. I mean 2 and 7.
Am Mahodaya, Namaskaraha. Okay, so I wrote with Tvam and Aham as well because you mentioned it in the email.
Bhagini, I wanted to tell you that. It's great you did it, Uttama Karyam. I wanted you to do on number 1 actually, because here Bhavan Bhavati we had done.
Yeah.
So if you could do this with Tvam and Aham is what I'd ask, but that's fine. Whatever you did is perfect.
Okay. So I did it for exercise 3. I'm not sure, but yeah. But I did both. I mean, I did with Bhavan Bhavati as well as with Tvam and Aham.
Read for Bhavan and Bhavati now.
Okay. Bhavan Jagrukah Bhavatu Bhavati Laksham Sadhayatu.
Lakshyam Kalu? Lakshyam.
Lakshyam, yeah.
Sadhayatu. Madhyama Purishe Vadatu.
Tvam Jagrukah Bhava. And Uttama Purushaha, Aham Jagrukah Bhavani.
Samyak. And Tvam Lakshyam?
Tvam Lakshyam? Tvam Lakshyam Bhava? Bhavatu? Nay. Bhut? Nay. Bhava, I guess. I'm not sure.
Sadhaya.
No. What did you say for Bhavati Lakshyam? What did you say?
Bhavati Lakshyam Sadhayatu.
Tvam Lakshyam?
Tvam Lakshyam Sadhaya. I'm not sure.
Is it don't overthink, Bhagini. Yeah, sadhaya.
Sadhaya, okay. Because for a few kriyapadani, I was not sure, especially the last from 7 to 10. I mean, I was not able to search for the dhatu padam, so I just guessed it Bhagini, and I wrote it.
Actually, if you see the question, it was to do for this one, okay? For the first one, you have to do the swamenda.
Okay.
Chinta mastu, okay. No problem, but it's good. Dhanyavada.
Dhanyavada.
Jai Mahodaya, eka prasya ha?
Haan, Mahodaya.
This one, this third one, Abhyasa 3, this gender, when Bhavati, this Jagarukaha will become Jagaruka, no? Bhavati, Jagaruka, Bhavatu.
Yeah, yeah, right. Uttamam, Mahodaya. Bhavati Jagaruka. But I think she said Bhavan Jagarukaha and Bhavati Lakshyam is what she said. But yeah, Samyak Mahodaya.
Okay, okay. No, what she said was right. I am not doubting that. But I had this. Otherwise, all others are Bhavati Bhavan same.
Uttamam, Mahodaya. Uttamam.
Okay.
Rajshree Bhagini, Karotu Agrim.
Namaste, Mahodaya.
Namaste.
Pravachanam. Bhavan Pravachanam Shrunotu. Then Bhavan Parakramam Pradashayatu. Bhavati Pravachanam Shrunotu. Bhavati Parakramam. Bhavati Pravachanam Shrunotu. Bhavati Parakramam Pradashayatu.
Samyak. Dhanyavada.
Dhanyavada.
Jaya Bhagini Agrima.
Namaskaram, Madhya.
Namaste.
Bhavan Vijayam Prapnotu. Bhavan Chitram Nirmatu. Bhavati Vijayam Prapnotu. Bhavati Vichitram Nirmatu.
Dhanyavada.
Dhanyavada.
Rameshwari Bhagini. Antimam.
Bhavan Shaktim Sampadayatu. Bhavati Nutanam Srujatu.
Samyak. ಧನ್ಯವಾದ ಇದಾನೀಂ ಅತ್ರ ಪಶ್ಯಾಮಃ
ಸೋ ಮಹೋದಯ ಹಿಯರ್ ಆಲ್ಸೋ ವಿ ಕ್ಯಾನ್ ವೈಸ್ ವರ್ಸ ರೈಟ್ ಲೈಕ್ ಚಿತ್ರಂ ಸೃಜತು ಆರ್ ಚಿತ್ರಂ ನಿರ್ಮಾತು ಅಂಡ್ ದೆನ್ ನೂತನಂ ಸೃಜತು ಆರ್ ನೂತನಂ ನಿರ್ಮಾತು ಕ್ಯಾನ್ ವಿ ಸೇ ಬೋತ್ ವೇಸ್
ಆಕ್ಚುಲಿ more appropriate will be chitram nirmatu okay. And nutanam rajatu is more like
there
get,
are so many
create acquire
rajatu rajatu there are so many meanings are given
here nutanam it means like to acquire or get a new one like that. There are a lot of meanings, Mahodaya.
Shrujatu means what? Shrujatu?
Shrujatu means acquire or get. Lot of meanings are there. Okay. Even maybe produce.
Yeah, so I was thinking like to surgeon, if we do any new creation surgeon, that's why I was thinking Nutanam Shrujatu.
Yeah. Nutanam Shrujatu is perfect.
Yes.
Any prashna, Santiva? Okay. Saraswati Bhagini, can you do Preshayati and Chalati for Tvam, Tvam and Aham?
Tvam Preshaya, Aham Preshayani.
Tvam Preshaya, Aham
Preshayani.
Samyak. And do for Chalati also.
Okay. Tvam Chala, Aham Chalani.
Samyak. Dhanyavada. Subodh Mahodaya, Agrimam Karotu.
Tvam Teja. अहं त्यजानि त्वं मिल अहं मिलानि
धन्यवादः उषा भगिनी अग्रिमं करोतु
महोदय नमस्कारः त्वं सञ्चर अहं सञ्चरामि त्वं तिष्ठ अहं तिष्ठामि धन्यवादः
वैभवी भगिनि
आं महोदय नमो नमः तं प्रदर्शय अहं प्रदर्शयानि तं जानः
ओके लीव दट् भगिनि ऐ शुड् नाट् हव् गिवन् दट् So that is a different, very different form. Okay, Janati will be Janihi. I think one or two got it right. Tamam. But yeah, this we have not seen.
So Mahoday, I was checking online and there were like three forms. So is Janita, is it okay as well?
It is Jani, he is usually used for the Madhyama Purusha Ekavachanam. It's the Lot Lakar.
Lot Lakar. Yeah, there were three forms for Lot Lakar. Jani Tat, Jani He, and then one more. So, I write
Yeah, so Jani. That will be for the Dvivachanam and Bahuvachanam.
Oh, okay.
It will be so Jani He, Jani Tam, Jani Ta for the Bahuvachanam. Mm-hmm.
Okay.
Yeah. I think Rameshwari Bhagini and I think Hemangi Bhagini got, but yeah, tamam. Yeah, so now if you find it difficult, please research, look around on the web, you know. Yeah.
So Mahodaya, I was... Accidentally, I did the third one with Tvam and Aham, but I was...
Yeah, I saw the...
Yeah.
I think on the third one, somewhere you had a similar one.
For Prapnuhi, I have written Tvam Vijayam Prapnuhi.
Yeah.
But I'm not sure about Pradarshaya. I have written Tvam Parakram. Parakramam Pradarshaya and Aham Parakramam Pradarshayani. So I'm not sure about Pradarshaya.
That is Samyak.
Okay, and what about Tvam Chitram Nirma? I have written Nirma because Nirmani I was not able to get Nirmatu, the Dhatu for Nirma. I searched a lot on Ashtadhyayi.
I think it will be Nirmaya maybe. Let me check. It will be Nirmaya, I think.
Okay.
Yeah, that's why these are a little more complex than this one, but Samyak Bhakti.
Okay. Also for Suja, because I was searching for Sadhayatu, and I got sadha dhatu, but the lot lakaras were totally different, sadhyati and all, sadhyato, like that.
Okay, chinta mastu, but you get the idea. Yeah, you can now you should be in a position to find for yourself, but if you cannot, then you know we can address it.
Okay, dhanyavada.
Dhanyavada bhagini. Sahitya bhagini agrimam antimam karotu. Dandayati prakshalayati.
Tvam danda or dandaya, I'm not sure, Mahadaya, but
chintayatu. Chintayatu, dandayati will become what? See, patati will become pata, right? Mm-hmm. So, dandayati will become what?
Dandaya, okay.
Dandaya.
Okay. Sounds like I'm not sure.
No problem.
And aham dandayani, sorry. And then tvam prakshalaya aham prakshalayan.
Samyak eva.
Mahodaya, can you please tell me what form will be with janati, aham janani?
Janati will be janihi.
No, that is for tvam, right? For aham, what will be?
Aham janani.
Janani, right? Okay, dhanyavada. Yeah.
Janatu, janitam, janantu, janihi, janitam, janita, janani, janava, janama. So this is very different from janati. From the lut and the lot are very different. So that's why I missed seeing that. Okay.
Also, Mahodaya, I have one more question. Now these names, lut, lut, lot, these are little confusing. So is there any trick to remember what form it is exactly? I mean, sometimes it is very confusing for me. If you ask what is the lot lakara, so I have to think, is it vartaman kal or adnya or bhutkal, what it is, like that. So is there any trick to remember this?
Aam, idanim to ratanam karotu.
Okay.
So it'll come by practice, Bhagini. I can't say of any other. So for now, remember that lat is the vartaman kala, lang is the bhutakala, lang lakar.
Okay.
Lot we are seeing here. Lot is the agnya prarthana. Okay, lrit is the bhavishyat kal. So these four you have to remember. So you have to remember them. Maybe you have to memorize. Okay, the lut, lot, okay. Lung, lrit. So slowly we have to stop saying bhavishyat kal and say lrit if possible, but that's fine. If you want to convey the meaning bhavishyat kal, we can say. But that is the lrit lakar.
Okay,
it'll be in the book.
Dhanyavada.
As we go forward, all these are given in very detail. So now we are doing the lot lakara in detail. So you will remember that, you won't forget. Lut, hopefully you remember for the vartaman kal.
Mahoday, I have a question. So since we're talking about the agnya and Vinanti form, so that agya, the that letter, how is it pronounced? Because when we do the transliteration, it comes as J-N-A, and in Hindi it's like agya, in Marathi it's agnya. So I'm always confused how to pronounce it correctly. So the J, like there is a slight J sound there?
J, N, J, something like that. Like, Ajnya. Ajnya. I don't know how to say it, Bhagini.
So like in Hindi, we have like a G sound, and in Marathi, we have like a D sound. That is not correct for Sanskritam, right?
So yeah, in Marathi, usually we say Jnya. Jnya,
like Jnaneshwar.
Yeah.
So the Jnya has the little D sound, right? But in Hindi, we say Ajnya.
So what you said just now, that is the right pronunciation.
So Ajnya. Ajnya. So Ajnya. There is like, okay. Amma Ode, Dhanyavad.
Okay, so this is what the Lot Lakara is. All this Raktavarnasya Dattamasti Kalu, all that is the Lot Lakara. So just, we are in different Purusha, so Pathani, see, this is for the Uttama Purusha, Patha, Astu, Smara, all that is
not present. Lot.
Lot. So these are the lot. Karavani. See that? Karavani. So what is Hemangi Bhagini Vadatu? Karavani is what Purusha?
Karavani is Uttama Purusha. Ekavachanam.
Samyak.
Dhanyavada.
And Bhumi Bhagini Vivranotu. Atarasti Kulu.
Vivranotu is Pratham Purush Ekvachan.
Samyak. So just there is no other way. You have to keep revising this. And there are some other words like Vikshasva. These are also lot, but this is for the Atmanepadi, which we will see later. Purva Adhyayam Na Patitavantaha. There it is all the Atmanepadi Rupani. So there we will see that. So see, Arabhavahai, Prayatai, these are all the Atmanepadi Lot Lakar. Not to confuse you, but when we see it, it'll come. Kurushva, so this is for the Madhyama Purush. Okay? Agreha. So you may have to, so when we look at the Atmanepadi, that will also have the Lut and the Lot. So that will be a little confusing because they are very similar, yet very different. So you'll have to keep reading. Okay. Let's look at the full thing once more. Vaibhavi Bhagini Patatu Atra Avadeyam.
Which page, Mahoday? 52?
Can you see the screen?
Yeah, I'm not able to see completely.
Oh, you're not?
I don't know if other people... I have a book, no problem.
Okay, so this is page 52.
Okay, I'm on there.
The Avadeya. Ek nimisham. So everybody cannot see the screen properly? पठतु भगिनि.
अवधेयं प्रथमपुरुष पठतु भवन्तौ पठतां भवन्तः मध्यमपुरुष त्वं पठ युवां पठतं यूयं पठत उत्तम पुरुष अहम पठानि आवाम पठाव वयम पठाम.
इट इज पुरुषः भगिनी प्रथम पुरुषः मध्यम धन्यवादः.
आम् आं महोदय.
साहित्या भगिनी, केन् यु लुकिङ्ग् एट् दिस् केन् यु से फोर् लिख् दातु हौ इट् विल् बि जस्ट् से द वर्ड्स् ओन्लि. साहित्या भगिनी अस्ति वा?
Sorry, I couldn't hear. I didn't hear. It was me. What was the word, Mahodaya?
Lik. Lik dhatu.
Lik. Okay. Bhavan likatu. Bhavantau likattam. Bhavantaha likantu. Tvam lik lika. Yuvyam likat.
Yuvam
likatam. यूयं लिखत. अहं लिखामि. आवां लिखाव. वयं लिखामः.
धन्यवादः. किञ्चित् अग्रे पश्यामः. Anita Bhagini, hopefully you have fixed your problem. Can you read?
Aam Mahodaya. Is it better
this
now?
This is much better. Dhanyavada. Much better. Ekanimisham. So, Ekanimisham Bhagini. So here, this is given for both the lut and the lot. Okay, so read the lut first, so it will be the one on the left, and then read the lot, so it will be, it won't confuse. Karuta. Sure.
Kridati, kridatu, kridataha, kridatam, kridanti, kridantu.
So say like this, Bhavan kridati. सः
क्रीडतु. भवान् क्रीडति, सः क्रीडतु. भवन्तौ क्रीडतः, तौ क्रीडताम्. भवन्तः क्रीडन्ति, ते क्रीडन्तु.
So now for the only for the lut, can you say the next one? I mean, for the lot, the lot is given there.
Saha, saha, namatu. Saha namatu, tau namatam, te namantu.
Dhanyavada.
Dhanyavada.
Aparna Bhagini, next line.
Ammode. Bhavan rakshati, saha rakshatu. Bhavantau rakshatah, tau rakshatam. Bhavantah rakshanti, te rakshantu.
Dhanyavada. बालकृष्ण महोदय अत्र दृष्ट्वा पठतु, वदतु. बालकृष्णमहोदय अस्ति
वा?
उच्चैः वदतु महोदय. आम्.
भवान् भ्रमति, सः
सः भ्रमतु. भ्रमतु
सः भ्रमतु. भवन्तो भ्रमतः, तौ भ्रमताम्. भवन्तः भ्रमन्ति, तौ भ्रमन्तु.
तौ वा?
ते भ्रमन्तु.
सर्वे शृण्वन्तु. ओन्ली द पर्सन् हूस् स्पीकिङ्ग् प्लीस् स्पीक् एव्री वन् एल्स् गो आन् म्यूट् डोण्ट् प्राम्प्ट् वि वाण्ट् एव्रि वन् टु थिङ्क् इन् एन् आन्सर् ओके धन्यवादः. अग्रे मध्यमपुरुषः भूमि भगिनी पठतु.
त्वं सरसि त्वं स्मर युवं स्मरथः युवं स्मरतं यूयं स्मरथ यूयं स्मरत.
अत्र पश्यतु स्मरथ स्मर सो बै लुकिङ्ग् एट् दीस् वर्ड्स् यु शुड् बि एबल् टु गेट् अ गुड् ऐडिया वाट् लकार वाट् यु नो पुरुषः वचनम् इत्यादय स्मरसि अग्रिमं करोतु भगिनि.
त्वं त्यजसि त्वं त्यज युवं त्यजथः युवं त्यज यूयं त्यजथ यूयं त्यजत.
मध्यमपुरुषे किम् अस्ति पुनः वदतु.
युवं त्यजथः युवं त्यजतम्.
धन्यवादः भगिनि. ऐ डिडन्ट् हियर् यू प्रापर्लि. धन्यवादः.
धन्यवादः.
हेमाङ्गी भगिनी अग्रिमं करोतु.
आं महोदय. त्वं स्पृशसि त्वं स्पृश युवं स्पृशथः युवं स्पृशतं यूयं स्पृशथ यूयं स्पृशत.
धन्यवादः. उत्तमं.
धन्यवादः.
जया भगिनी अग्रिमं करोतु.
महोदय. त्वं लट्लकारस्य त्वं कूजसि युवां कूजथः यूयं कूजथ लोट्लकार त्वं कूज युवां कूजतं यूयं कूजत.
सम्यक्.
धन्यवादः. डौट् ऐ हेव् वन् डौट् ऐ एम् बालकृष्ण. पूजतम् और् पूजताम्?
कूजतम् सि अत्र पूजतां विल् बि हियर् महोदय. किम् ताम् विल् बि फर् द प्रथमपुरुष द्विवचनम्.
Mahoday, I also have one question for the pronunciation. Whenever there is a rikarant, do we say ru or ri? Like here, it's a sprushasi or sprushasi?
The rika will be ru, but which word are you specifically asking about?
Here, it's a sprusha, right? Sprushasi. So how do we say it? Sprushasi or
sprushasi? Spru, you can say spru.
Sprushasi. Okay.
Yeah. Because spru will be with the r, you know, the spru will be like that. Spru will be like that. Spru. It's a subtle difference. Yeah.
Okay.
Rajshri Bhagini.
अहम्
अहं हसामि आवां हसवः आवां हसाव वयं हसामः वयं हसाम
प्रथमं लट् वदतु अनन्तरं लोट् वदतु धन्यवादः
अहं पचामि आवां पचावः वयं पचामः लट् लोट् लकार अहं पचानि आवां पचाव वयं पचाव
वयं पचाम धन्यवादः
धन्यवादः
रामेश्वरी भगिनि
लट् लकारे अहं तरामि आवां तरावः वयं तरामः लोट् लकारे अहं तरानि आवां तराव वयं तराम
सम्यक् धन्यवादः सो पश्यतु फर् द लट् it is with the visarga for the lot without the visarga so some things you can keep in mind to make it easier subodh mahodaya agrimam karotu
aham bhavami avam bhavavah वयं वहामः अहं भवानि आवां भवावा वयं भवाम धन्यवादः
धन्यवादः सो या कीप् प्राक्टिसिङ्ग् दिस् लैक् ऐ सेड् देर् इस् नो अदर् वे सो देर् आर् लाट् आफ् अत्र अस्ति खलु यु केन् जस्ट् practice with this okay so here we come to the Atmanepade so let us go back and look at
इदानीं आत्मनेपदीनां धातूनां परिचयं कुर्मः किञ्चित् सो अत्र भेदः अस्ति किञ्चित् ते ते इति अन्ते आगच्छति आत्मनेपदे तदैव सो विल् जस्ट् लुक् एट् दिस् सो यु विल् गेट् यूस् टु दीस् वी हेवन्ट् वी मैट् हेव् यूस्ड् इट् इन् सम् स्टोरीस् बट् अदर्वैस् वी हेवन्ट् सीन् देम् सो विल् लुक् एट् देम् सरस्वती भगिनी अत्र एतानि आरभ्य किञ्चित् पठतु
एतानि वाक्यानि सावधानतया उच्चैः पठत परिशीलयत च अर्जुनः पृच्छति कृष्णः भाषते भगिनी
अग्रिमम् अपि पठतु
मूर्खः शोचति पण्डितः मन्यते
पर्याप्तं भगिनि धन्यवादः सो पृच्छति खलु अर्जुनः पृच्छति So he's asking, Krishna bhashate, he's answering, or he's uttering words, he's saying. Murkaha shochati, he's repenting. So Murkaha, he's repenting. Panditaha manyate, he's, Panditaha manyate means he's getting, he's getting rewarded or everybody respects him, something like that. Or he knows. any meaning you can take
shamyadam bhagini manyate itte
he thinks or believes that way, isn't it? Aham manye, panditaha manyate.
Yeah, there are lot of meanings, but yeah, that also you can't. Manyate. Agnihi jvalati, suryaha prakashati. Tadapi agnihi jvalati, so it's like a jvalati, the suryaha prakashati is bright. So prakashati. So here are some of these latlakara rupani. So they are ubhayapadi. They are called ubhayapadi. So jvalati can be also jvalati. Also you might see somewhere, but they are both are of same meaning. So surya prakashate also you might see. So some are there, but lot of them are ubhayapadi. They are called ubhayapadi because jvalati also you see. So they are called ubhayapadi dhatuna.
Where can I find the list of all the ubhayapadis?
List of No. List. You have to search it, right? You don't get a list like that, but you have to search.
Okay.
So now by the use, you will slowly understand, Bhagini. It is not that you have to like just by heart the list, but as you see the words, you know, like Ramaha Gachyati, like this, what it is given here. So when you see that it is ending with the Te. Te Antaha Asti Chet. Prayashah Atmanepadi Asti. Is how you will figure it out. And we'll see the Dvivachanam and Bahuvachanam also. Okay. It's
okay.
A little different from the Parasmaipadi is what the other one is called. Prichyati, right. Shochati and all are Parasmaipadi Dhatul. Dhatunaha. And Bhashate, Manyate, they are all Atmanepadi Dhatunaha. Okay.
Yeah, so, yeah, list you get by practice. If I find some list, Pravesha Pustaka, if you have, they have a lot of Ubhayapadi Dhatuna, so you have a lot of them. So, yeah, you can look it up and it comes by practice. Most of them you have Ubhayapadi. Okay, Agrimam.
Bhagini, there is a list. I was searching and on Google, and there is definitely a list for Atmanepadi. And there are a lot of Parasmaipadi, but Atmanepadi are not that many. So they have some kind of list.
Ubhayapadi there will be. Yeah, you can find, but be sure it's a genuine. Yeah, they keep updating online. But if you have something genuine site, or like sometimes there will be a lot of mistakes, so you have to be careful.
Yeah,
they keep updating, so you might have something. I have never looked for it. So. Okay. Agre gachama.
Bhagini, I'm still confused about the whole concept of these two.
Yeah, it's just a different way of saying. Is shochati, right? Murkaha shochati, same way. There can be another shochate. So, ti or tiganta or te. End te or ti, it means the same. It's a laklakare. Shochati or shochate. They are called ubhayapadi. Ubhayapadi dhatava.
So, they are used in different situations?
No. Nothing like that. They are used in the... They mean the same. You can interchangeably also use it.
Samyakam Bhagini, Prichati Sochati Eva Parasmaipadi Dad Parasmaipadi Nahayava Upayapadi Nahana.
Prichati Nasti Bhagini. Prichati Am
Sochati Sochati Abhi Parasmaipadi
Jwalati Jwalati
Parasmaipadi
Nindati Asti.
All these things
Jwalati Nindati Saravam Asti. Abhinandati sarvam api asti. Vidyate api asti.
Bhagini, not to get confused here, see, there are certain words like we said that can be both. ओके परस्मैपदी अपि च आत्मनेपदी लाइक फॉर एग्जांपल आई विल जस्ट गिव यू डोंट गेट कंफ्यूज्ड करोति ओके करोति इज अ परस्मैपदी कुरुते द सेम थिंग यू कैन से एज कुरुते इट इज आत्मनेपदी ओके सो द कृ धातु इज बोथ आत्मनेपदी एंड परस्मैपदी एंड एज वी गो फॉरवर्ड दिस विल बिकम क्लियरर बट डोंट गेट too confused right now. We'll just go with the flow, see, try to understand the words and how to identify by looking at it. And then all the Pratama Purusha, Uttama Purusha, Madhyama Purusha, we'll look at it and we'll understand, okay?
So, Mahodaya, as you said in Parasmaipadi, Karoti and Atmanepadi, Kurute, right? So, is there any rule or like when to use Atmanepadi and when to use Parasmaipadi? If the meaning is
I had
same,
the same question.
Yeah.
There is no specific rule like that, Bhagini.
Okay, so the meaning is exactly same, Atmanepadi as well as Parasmaipadi?
It again, like I said, it depends on the kriya. Okay.
Okay.
If you are using a synonymous kriya, it will be the same. But only thing is, like here, like let's look at the first one. Arjunaha vadati. Okay. Arjunaha vadati. Krishnaha bhashate. They mean roughly the same. Arjuna says, Krishna says. Avagatam?
Yeah,
Prichyati and bhashate may not be exactly the same, but if you say vadati and bhashate, it will be the same.
So can we say Arjuna bhashate and Krishnaha vadati? So
yeah.
Will...
Yeah, okay. Yeah, exactly. Yeah.
Okay.
These are all just examples.
Okay.
So the Kartrupadam you can always interchange.
Okay.
Okay, maybe not Panditaha Shochati, but Agnihi Prakashate, you can say. The fire gives out light.
Okay.
Mahodaya, can I share my understanding for Atmane and Parasme?
Kim Bhagini?
So I was saying, can I say my understanding for Atmane and Parasme? So what by seeing some YouTube videos and Google out, so I understand that some Kriya Padani are only in Atmane Pada, like Vandate, Vardhate, Vashate, they are
exactly
only in Atmane,
yeah.
And some Kriya Padani are only in Parasme, and some are, you can say in both ways, that
yeah.
Is what it is.
Yeah, exactly. There are, most of the Kriyas are Parasmai Padi. There are many that are Atmanepadi, and there is a set which have both. Like I said, Karoti. Okay, Karoti is Parasmaipadi, but Kurute, there is a different form. Kurute will be Atmanepadi. So those Dhatu, Ekanimisham Bhagini. So those Dhatus which have both the forms are called Ubayapadi. Okay. We have seen Ubhaya in, I think, on both sides, right? In one of the earlier lessons, we have seen that. So Ubhaya means both. They will take both Parasmaipadi and Atmanepadi.
I guess Pachati we have seen in Abhyasa Pustakam, which is Ubhaya Padi, I guess.
Yeah, we have seen that. Ubhayataha we have seen, right?
Yes.
So both sides. So that means both. We'll take both.
Okay. Dhanyavada, Mahodaya.
So, Mahodaya, if I say, Bhavan kim karoti, and bhavan kim kurute, both have same exact same meaning.
Aam bagini.
Okay, dhanyavada.
It's a new concept, so there'll be a lot of questions. So I would suggest, let's now that we have some basics laid out, let's just go through this, and as we read it, we'll try to understand as we go forward. Agree. वैभवी भगिनी अग्रे पठतु.
आं महोदय. अहितः निन्दति श्रेयः विद्यते, एषा अभिनन्दति सः वर्तते. शुड आई रीड फर्दर डाउन?
ओके भगिनी, धन्यवाद.
धन्यवाद.
अपर्णा भगिनी पठतु अत्र.
फ्रोम् अहितः निन्दति, राइट?
नो, फ्रोम्
एतेषु वाक्येषु क्रियापदेषु परस्मैपदीधातूनां रूपाणि प्रयुक्तानि सन्ति. एतानि सर्वाणि रूपाणि लट् लकारस्य प्रथमपुरुषैकवचनरूपाणि. एतेषु वाक्येषु क्रियापदेषु आत्मनेपदीधातूनां रूपाणि प्रयुक्तानि सन्ति.
So basically it says all the above. The Parasmaipadi.
Parasmaipadi and this is Atmanipadi.
Bhumi Bhagini, can you read the first line here? Avadheyam.
Aam Mahadaya. Avadheyam. Kriya padasya moolam dhatuhu yatha pathati ityasya kriya padasya moolam patha iti dhatuhu.
Patha na pat.
Pat. Pat iti dhatuhu. Pat iti dhatuhu.
हलन्त चिह्न अस्ति खलु तत्र पठ धातु.
पठ धातु.
अग्रे अपि पठतु.
धातवः त्रिविधाः सन्ति, परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः च इति. पठ, लिख, क्रीड, मिल, गम इत्यादयः धातवः परस्मैपदिनः. वन्द, ईद, लभ, ईक्ष, लज्ज इत्यादयः धातवः आत्मनेपदिनः. परस्मैपदीनां धातूनां लट् लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ति इति श्रूयते.
किञ्चित् वदतु.
सो धातवः मीन्स् धातूस् त्रिविधाः सन्ति. सो देर् आर् थ्री कैण्ड् आफ् धातु परस्मै दिनः आत्मनेपदी आत्मनेपदिनः सोरि परस्मैपदिनः आत्मनेपदिनः एण्ड् उभयपदिनः. सो दे आर् सेङ्ग् देर् आर् त्री टैप्स् आफ् धातु परस्मैपदी आत्मनेपदी एण्ड् उभयपदी च इति. सो पट् लिक् क्रीड नील गम इत्यादि दे आल् आर् परस्मैपदी. वन्द ईद् लभ् इक्ष् लज्ज इत्यादि आत्मनेपदी. सो अगेन् एस् यू सेड् लैक् वी हेव् टु लैक् रटर्न् वी हेव् टु डू इट् अदर्वैस् वी वोण्ट् बि एबल् टु नो लैक् विच् वन् इस् विच् वन्. So we have to memorize it. So there is a list for Atmanepadi and Parasmaipadi, and there are some are Ubhaipadi. So Parasmaipadi nam dhatu nam lat lakarasya pratham purushaika vachana rupeshu ante ti iti shruyate. So whatever are Parasmaipade, they at the end always there is a ti. So that is a trick. Hemangi Bhagini was asking like what is the trick. So that is the trick, like then only you can know that that is the Parasmaipadi, and whatever is Atmanepadi, there will be te only. So Atmanepadi won't be have ti, it's always te. So vandate, edate, labhate, ikshate, so then we can know it's Atmanepadi. Is it Samyak Mahoday?
Dhanyavada Bhagini. Samyak. Okay. Uttamam. Okay. I was talking on mute. Dhanyavada.
Dhanyavada.
Hemangi Bhagini Agre Patatu.
Aam Mahoday. Atmane Padi Naam Dhatu Naam Lat Lakarasya Prathama Purusha Eka Vachana Rupeshu Ante Te इति श्रूयते. यथा वीक्षते, लज्जते, कंपते. उभयपदी नाम तु धातूनां लट्लकारस्य प्रथमपुरुष एकवचनरूपेषु अन्ते ति ते एतद् उभयम् अपि श्रूयते. यथा करोति, कुरुते, याचति, याचते, जानति, जानीते.
सो अत्र पश्यतु करोति, कुरुते. ओके, सो द कृ धातु इस् उभयपदी धातु. याचति, याचते, या धातु, जानाति, जानीते. So don't worry too much now. As we go forward, and we'll read a short story, and hopefully we'll try to understand as we go forward. Okay. So the main thing to keep in mind is Parasmaipadi, Atmanepadi, and what is the final one?
Ubhayapadi.
Ubhayapadi. Samyak.
रामेश्वरी भगिनी पठतु. एतत् रक्तवर्णस्य आरभ्य पठतु भगिनी कृपया.
भ्रातृमेलनम् आत्मनेपदीनां धातूनां परिचयः लट् लकारः. एतां कथाम् उच्चैः पठत, अवगच्छत च. पाण्डवाः वनवासम् आचरन्तः, बदरीकाश्रमम् आगताः. द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते. द्रौपदी अपि विहरन्ती मोदते.
पर्याप्तम्. अत्र स्थूलाक्षराणि दृश्यन्ते खलु, अत्र रमन्ते, मोदते, एतत् सर्वम् आत्मनिपदे दातवान्. सो सर्वमत्र स्थूलाक्षराणां क्रियापदानि सर्वाणि किम् अभवत् न जानामि. एकनिमिषं न दृश्यते वा? डिस्कनेक्ट् अभवत् भगिनि. एकनिमिषं तिष्ठतु. दृश्यते वा?
न भगिनि.
आं भगिनि श्रूयते बट् न दृश्यते. न
शेर् करोमि. अहं न जानामि किम् अभवत् इति.
I think you have to reconnect.
सो अग्रिमं सरस्वती भगिनी पठतु. अग्रिम वाक्यत्रयं पठतु भगिनि. तदनन्तरं चर्चां कुर्मः. श्रूयते वा?
श्रूयते भगिनि.
सारी, इदानीं पठतु वयं परिशीलयामः इदानीं. तदनन्तरं चर्चां कुर्मः.
एकदा द्रौपदी, ऐ विल् रीड् फ्रम् द बुक्, द फाण्ट् इस् स्माल् फार् मी, वन् सेकेण्ड्. एकदा द्रौपदी वायुना अनुमतिं वायुना अनीतम् एकं सुन्दरं पुष्पम् ईक्षते. एक वान्स् द्रौपदी वायुना आनीतं, शी वाण्टेड् वन् ब्यूटिफुल् एकं पुष्पम् ईक्षते. यास्ट् भीमा टु गेट् हर् अ फ्लवर्.
न वायुना न इदानीं चर्चा मास्तु, परन्तु वायुना आनीतं, द विण्ड् गाट् अ फ्लवर्, शी सा अ ब्यूटिफुल् फ्लवर्. वायुना आनीतं ईक्षतु. ईक्षते इस् इक्वलेण्ट् टु वाट्? ईक्षते इस् अ आत्मनेपद. परस्मैपदे वाट् यु केन् ईक्षते? परस्मैपदी
आत्मनेपदी. आत्मनेपदी ईक्षते, पश्यति.
पश्यति. सो देट्स् हौ इट्स्, यु केन् यूस् देम् इण्टर्चेञ्ज्, कैण्ड् आफ् मीन्स् द सेम् थिङ्ग्. अग्रिमम्.
तत् सौनक सौगन्धिकं कमलम् इति सा जानीते. तत् दट् सौगन्धिकं कमलं.
अनुवादं मास्तु इदानीं भगिनि.
जानीते, शी न्यू, नोस्, नोस् रैट्. आत्मनेपदी.
जानीते इस् लैक् जानाति. जानाति परस्मैपदे इस् द सेम् थिङ्ग्. जानीते, इट् टेक्स् जानीते फार्म्, इट् चेञ्जस् टु जानीते.
आत्मनेपदी प्रथमपुरुष एकवचनं. सा सादृशानि अधिकानि पुष्पाणि काम्यते. काम्यते आत्मनेपदी इस् डिसैर्.
कामयति.
कामयति
सा सादृशानि अधिकानि पुष्पाणि कामयते.
कामयते इस् आत्मनेपदी.
kamayati api asti, it's a ubayapadi, but yeah, we don't have to worry too much, no? Yeah, ubayapadi. Agrima?
Ataha sa patim bhimasenam pratayate bhavan etadrushani anyani bahuni pushpani anayatu iti.
धन्यवादः.
प्रार्थयते यस् आत्मनेपति
प्रार्थयति अपि उभयपदी
उभयपदी.
धन्यवादः भगिनि. सुबोधभय अग्रिमवाक्यत्रयं पठतु.
भीमसेनः गदापाणिः सन् प्रतिष्ठते ताम् एव दिशं गत्वा सः गन्धमादनपर्वते सर्वत्र मृगयते सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते. अग्रे गतः भीमसेनः कदलीवनम् आलोकते.
पर्याप्तं. सो किं किम् अस्ति अत्र आत्मनेपदी?
प्रतिष्ठते आत्मनेपदी, मृगयते, निरीक्षन्ते बहुवचनम्, आलोकते.
परन्तु प्रतिष्ठते, मृगयते, निरीक्षन्ते उभयपदी दातव. It comes from practice, or no? Yeah, you can look it up. It comes by practice mostly. Mahodaya,
pratishtate kim bhavati parasmai padi form?
Pratishtati?
Samyak.
Usually, yeah, very rarely there are some different rupas like janati, janite. Otherwise, titi, usually the mragayate, mragayati. Usually they are pretty much the same in Lat-Lakara.
Bhagini, mragayate ityukte kim, Bhagini?
He is going around. There are a lot of meanings, but he is like, he is wandering around.
Oh, like atati?
It's something like that, yes.
Okay, dhanyavaad.
वैभवी अग्रिमवाक्यत्रयं पठतु.
तत्र हनुमान् निद्रावशगः आसीत्. सः स्वर्गद्वारम् आवृत्य शेते स्म. भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते. तदा हनुमान् लोचने ईर्षद उन्मील्य शम्यते.
स्मयते. उन्मील्य स्मयति. कुत्र आसीत्? तत्र खलु. तत्र हनुमान्
निद्रावशगः आसीत्. सः स्वर्गद्वारम् आवृत्य शेते स्म. सो शेते स्थूल अक्षर उन्दि इति आत्मनेपदी.
शेते. शेते इज अ शी धातु. इज लाइक अ निद्राति, दैट मीनिंग. निद्रां करोति तथा विदार्थः. परन्तु इट्स अ डिफरेंट शी. शी धातु. सो
कुरुते.
कुरुते.
कुरुते इज उभयपदी. इट कम्स इन बोथ फॉर्म्स, परस्मैपदी एंड आत्मनेपदी. तदा हनुमान् लोचते ईर्षद.
भगिनी एकनिमिषं. सो द उभयपदी इज द धातु. ओके, सो कुरुते दट फॉर्म इज कॉल्ड आत्मनेपदी. द क्रू धातु इज उभयपदी. ओके
ओके या.
सो परस्मैपदे किं भवति? कुरुते.
कुरुते करोति.
अग्रिमं
तदा हनुमान् लोचने ईर्षद् उन्मील्य शम्यते. दिस् इस् शम्यते इस् आत्मनेपदी. स्मयते
आत्मनेपदी. इट्स् आत्मनेपदी धातु. इट्स् लैक् स्मैलिङ्ग्. ओके
स्मैलिङ्ग्. ओके
धन्यवादः भगिनि. उत्तमं
धन्यवादः.
साहित्या भगिनी अग्रिमवाक्यद्वयं पठतु.
ततः भाषते च ततः भाषते च किमर्थं किमर्थं सुखसुप्तं मां सुखसुप्तं मां प्रबोधयसि त्वं कः किमर्थम् आगतः एषः देवलोकस्य मार्गः वर्तते अत्र मनुष्याणां प्रवेशय अनुमतिः न विद्यते इति.
अत्र किं किम् अस्ति? स्मयते
भाषते भाषते
भाषते वदति वर्तते
विद्यते
विद्यते. ओके विद्यते मीन्स् लैक् भवति तथा विदार्थ बट् उभयपदेपि अस्ति विद्यते. धन्यवादः.
धन्यवादः.
अनिता भगिनी अस्ति वा? अनिता भगिनी प्रायेण बालकृष्णमहोदय पठतु.
अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते. विद्यते आत्मनेपदे इति. तदा भीमसेनः ब्रूते अहं कुन्तीपुत्रः भीमसेनः एतेन मार्गेण गन्तुम् इच्छामि. त्वम् उत्तिष्ठ मार्गं प्रयच्छ इति. आत्मनेपदे विद्यते ब्रूते.
ब्रूते किम् अस्ति? अर्थः कः जानाति
वा?
वदति इति.
वदति.
अग्रिमवाक्यमपि विद्यते. पठितवान् वा? शक्तिः न विद्यते. विद्यते विद्यते अपि अस्ति तत्र. मीन्स् लैक् ही डजन्ट् हाव् द स्ट्रेङ्थ्. डजन्ट् एक्सिस्ट्. ऐ डोण्ट् हाव् द स्ट्रेङ्थ्. सो वाट् इट् मीन्स् शक्तिः न विद्यते. धन्यवादः महोदय. चित्रा भगिनी अस्ति वा?
अस्ति भगिनि. नमो नमः.
नमो नमः भगिनि. पठतु. वाक्यद्वयं.
हनुमान् वदति अहं व्याधिपीडितः अस्मि अतः उत्थातुं मम शक्तिः न विद्यते. यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ इति.
लङ्घयित्वा
लङ्घयित्वा लङ्घयित्वा गच्छ इति. हनुमन् वदति अहं व्याधिपीडितः अस्मि, अतः उत्थातुं मम शक्तिः न विद्यते. विद्यते
विद्यते विद्यते आत्मनेपदि ते ते
आत्मनि सारि 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 विद्यते आत्म हलो
श्रूयते
विद्यते आत्मनेपदि यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ इति.
धन्यवादः
भगिनी. विद्यते इस् अस्ति इक्वल्
या एक्सिस्ट् ऐ डोण्ट् हाव् देर् आर् लाट् आफ़् मीनिङ्ग् फोर् नौ ऐ डोण्ट् हाव् द सी मम शक्ति अथवा सा तु मम शक्तिः न विद्यते. ऐ डोण्ट् हाव् द एनर्जि टु गेट् अप् ओके. अहम् उत्थातुं मम शक्तिः न विद्यते. एनर्जि डजन्ट् एक्सिस्ट् देट्स् वाट् दिस् इयर् द मीनिङ्ग् इस्
परस्मैपदि ईक्वलेण्ट् वर्ड् अस्ति
अस्ति शक्तिः नास्ति नास्ति शक्तिः नास्ति तथाविध अर्थ. सम्यक्
भगिनी लङ्घयित्वा इत्युक्ते किं लङ्घयित्वा
किं किं भगिनि
लङ्घयित्वा इत्युक्ते किम्
ऐ हाव् गान् टु लङ्का
कूर्दनं कृत्वा भगिनि जम्प् लङ्घनं जानाति वा ऐ केनाट् यू जस्ट् जम्प् अक्रास् मी अण्ड् गो देट्स् वाट् इस् लङ्घनं कूर्दनं.
धन्यवादः.
चर्चां कुर्मः इदानीं परिशीलयामः केवलं आत्मनेपदधातवः.
अस्तु अस्तु भगिनि
इदानीं दशनिमिष अग्रिमम् अपर्णा भगिनी अग्रिम वाक्यत्रयं पठतु भगिनि. तदा आरभ्य
तदा भीमसेनः वदति परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने तव लङ्घनेन तस्य अवमानं कर्तुं न उत्सहे अन्यथा हनुमान सागरम इव त्वां लङ्घयित्वा गच्छेयम् इति. सो अवतिष्ठते सीम्स लाइक अ आत्मनेपदी. जाने कुड बी उभयपदी आई फील.
न जाने या बट हियर व्हाट इट इज
हियर इट इज हियर इट इज आत्मनेपदी.
All the stulaksharani, all
atmanepati,
yeah, ubhayapadi. But since you are just seeing it, you may not yes. be that clear. But avatishtate, na jane, janami. That's the ubhayapadi. Parantu, avatishtate, avatishtati. Means I don't have, that we can do later. Okay, utsahe api.
Na utsahe api.
Utsahe api. अग्रिमवाक्यद्वयं पठतु. हनुमान् पृच्छति.
हनुमान् पृच्छति कः सः हनुमान्, किमर्थं सः सागरं लङ्घितवान् इति. शुड् ऐ गो अहेड्? हनुमान् मम भ्राता. रामायणे सः अतिविख्यातः. रामपत्न्याः सीतायाः अन्वेषणाय सः शतयोजनविस्तृतं सागरं लङ्घितवान्. अहमपि बले पराक्रमे युद्धे च तेन तुल्यः वर्ते इति साभिमानं वदति भीमसेनः. अन्ते मार्गं प्रयच्छ इति पुनरपि वदति.
धन्यवादः.
आं भगिनि. धन्यवादः.
किम् अस्ति अत्र आत्मनेपदी?
Varte.
Varte.
Varte. I'm not able to see any other.
Yeah, Sulaksharani na. Nasti. Varte.
Varte.
Tulya varte. Vartate. Amapi. So, agrimam. Yeah, charcham agrima saptaye kurmaha. Vakyadvayam patitva. Himangi bhagini patatu.
आम भगिनी हनुमान वदति जरया मम उत्थातुं शक्तिः नास्ति त्वमेव अनुकंपया एतत् पुच्छं अपसार्य गच्छ इति अग्रेपि भीमसेनः पृच्छे गृहीत्वा एतं वानरं यम सदन यम पृच्छे गृहीत्वा
रो नास्ति भगिनि केवलं
क्षम्यतां पृच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति ततः सः अवज्ञया वामहस्तेन पुच्छं गृहीतवान्
अग्रिम
किन्तु तत् पुच्छं किञ्चिदपि न कम्पते अधुना भीमसेनः बाहुभ्यां पुच्छम् उच्छेप्तुं प्रयतते अग्रिममपि पठामि किम्
अग्रिमवाक्यद्वयं पठतु तत्र बहवः सन्ति
तथापि पुच्छं न कंपते भीमसेनस्य शरीरं स्विद्यते अस्तु
वदतु किं किम् अस्ति अत्र
कंपते प्रयतते स्विद्यते ओन्ली दीस्
कम्पते कम्पते स्विद्यते स्विद्यते अस्ति खलु स्विद्यते स्विद्यति अपि अस्ति जायते जायते जायति अपि अस्ति वयपदि धन्यवादः भगिनि
धन्यवादः
रामेश्वरी भगिनी अग्रिमवाक्यं वाक्यत्रयं किं
पुनः पुनः प्रयत्नेन अपि सः विफलः जायते सः नितरां लज्जते अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते कपिशार्दूलः मां क्षमतां वानररूपदुग् भवान् सिद्धदेवः गन्धर्वः वा कः इति वदतु अहं शिष्यवत् भवन्तं पृच्छामि कृपया वदतु इति जायते लज्जते प्रार्थयते इति आत्मनेपदी क्रियापदानि
समापयतु भगिनि किमपि नास्ति तत्र वदतु इति समापयतु
तदा हनुमान् स्वस्य परिचयम् उक्तवान् भीमसेनः भक्त्या तं नमस्कृतवान् हनुमान् प्रीत्या तम् आलिङ्गितवान् ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य रामावतारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान् अन्ते तम् आशीर्भिः अनुगृह्य अन्तर्हितः अभवत्
तदैव तत्र किमपि नास्ति एतत् सर्वं
सर्वे गृहे एकवारं पुनः पठन्तु एण्ड् ट्रै टु अण्डर्स्टाण्ड् नेक्स्ट् वीक् वी विल् सी वि विल् गो इन् टु डीटेल् बट् प्लीस् रीड् इट् अगेन् फ्रम् बिगिनिङ्ग् टु एण्ड्
सर्वे भवन्तु सुखिनः. बालकृष्णमहोदय प्रार्थनां वदतु.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः.